एष रेडियो नेपाल सम्प्रति समाचार श्रूयन्ताम् प्रवाचक उपेन्द्र दाहाल प्रधानमन्त्री पुष्पकमल दाहाल प्रचण्ड निगदति बालबालिकानां कृते विद्यालयेषु सञ्चालितो दिवा अल्पाहार कार्यक्रम नेपाले सफल सम्भूतो वर्तते। खाद्य कृषि संगठनस्य इटाली देशस्य रोमवर्तिनी मुख्यालये आयोजितं खाद्य सम्मेलनं सम्बोधयन् या असौ नेपाले क्रियान्वितः विद्यालयाल्पाहार कार्यक्रमः विद्यार्थीनां स्वास्थ्याय समग्र शैक्षिक सुधाराय च प्रभावकारी अस्थिति समस्पष्टयत। अनेन कार्यक्रमेण 33 लक्षाणि बालबालिकाः प्रत्यक्ष रूपेण लाभान्विताः सन्तीति प्रधानमन्त्री प्रचण्डः तथ्याङ्कान् प्रस्तोत। 27.2 ख्रीष्टवर्षं यावत् नेपालः विकासोन्मुख देशस्य रूपेण स्तरोन्नयनस्य क्रमे अस्थिति ज्ञापयन् प्रधानमन्त्री प्रचण्डः वासत विद्यालये पोषणयुक्त भोज्य पदार्थस्य सुनिश्चितता आवश्यकी वर्तते। एतदर्थं स्थानीय खाद्य सामग्रीणाम् उत्पादनाय विविधीकरणाय च बलं दत्तमस्ति। ह्य एव इटाली देशस्य रोमनगरे विभिन्नानां नेपाली संगठनानां प्रतिनिधिभिः सह सम्पन्ने मेलने प्रधानमन्त्री प्रचण्डः भ्रष्टाचारे अनियमिततायां च संलग्नानां जनानां दण्डनं सर्वकारस्य संकल्पोस्थिति अवोचत। प्रधानमन्त्री प्रचण्डः देशे सुशासनस्य सामाजिक न्यायस्य समृद्धेश्च अभियाने सर्वकारः अग्रे वर्धितोस्थिति अज्ञापयत्। प्रधानमन्त्रिणा प्रचण्डेन सह नेपाली प्रगतिशील मञ्चस्य इटाली बेल्जियम स्पेन क्रोएसिया पोर्चुगल अस्ट्रिया आयरल्याण्ड देशीय प्रतिनिधिभिः मेलनं विहितम् आसीत्। मेलने प्रधानमन्त्री प्रचण्डः राष्ट्र निर्माणाय युरोप महादेशे विद्यमानानां नेपालीनां साहाय्यम् आवश्यकम् अस्तीति चर्चयन् तत्रत्यानां नेपालीनां समस्यानां समाधानाय आत्मना कूटनीतिका रीत्या सक्रियता विधीयमानास्तीति अवदत्। अत्रान्तरे प्रधानमन्त्रिणः पुष्पकमल दाहाल प्रचण्डस्य संयुक्त राष्ट्रसंघस्य महासचिवस्य एन्टोनियो गुटेरेस इत्यस्य च मध्ये मेलनं सम्पन्नं वर्तते। मेलवार्तायां पर्यावरणस्य खाद्य सुरक्षायाः नेपालस्य संयुक्त राष्ट्रसंघस्य च मध्ये विद्यमानस्य सम्बन्धस्य इतोपि सबलीकरणस्य च विषयेषु विमृष्टम् आसीत्। नेपाली कांग्रेस दलस्य केन्द्रीय समिते उपवेशस्य ह्यस्तने षष्ठे दिने दलस्य उपसभापति महामन्त्री भाषणाय अवशिष्ट केन्द्रीय सदस्याश्च धारणा उपस्थापयन्। ह्यस्तनोपवेशे दलस्य पक्षत सर्वकार्य सहभागिन सर्वकारस्य उप प्रधानमन्त्री उपसभापतिश्च पूर्णबहादुर खड्का अपरोपसभापति मन्त्री धनराज गुरूङ मन्त्री सीता गुरूङ च स्वस्व मन्त्रालयस्य अन्तर्गतानां विहितानां कार्याणां विषये धारणा उपस्थापयन्। उप प्रधानमन्त्री दलोपसभापतिश्च पूर्णबहादुर खड्का उपवेशे धारणाया उपस्थापनस्य क्रमे अगदत् सहभागिभ्यः प्राप्तानि परामर्शनानि कथनानि च अनुकूलरूपेण स्वीकृत्य तदनुरूपम् अग्रे वर्धनीयम्। एवमेव उपवेशे दलस्य अपरोपसभापति विधि न्याय संसदीय विषय मन्त्री च धनराज गुरूङ उच्च पदे पदासीनानां सर्वेषां नेतृणां सम्पद अनुसन्धानं विधेयम् भ्रष्टाचारस्य विषये सर्वै निर्ममतया प्रवर्तनीयम् इति च जनेच्छायाः अनुसारेण तदनुरूपम् एव अग्रे वर्धनम् आवश्यकम् अस्थिति बलं प्रादात्। उपवेशे दलस्य महामन्त्री गगन कुमार थापा यूनाम् आकांक्षाया अनुसारेण संसदीय दलस्य नेतुः परिवर्तनाय आत्मना प्रवर्तितमस्ति समर्थतायं सत्यं परिवर्त्यते इति च असूचयत्। महामन्त्री थापा आत्मना दल विभाजनस्य अपेक्षया दलस्य नेतुः परिवर्तनस्य विषय उत्थाप्यमानोस्तीति अगदत्। अपरो महामन्त्री विश्वप्रकाश शर्मा दले परिवर्तनम् आवश्यकम् अस्ति इति चर्चा चयन परिवर्तितं सुदृढं च कांग्रेस दलं निर्मातुं सर्वैः केन्द्रतैर्भाव्यमिति प्रावोचत। महामन्त्री शर्मा कांग्रेस दलं लोकतन्त्रे विश्वसिति इत्यतः आलोचनाया विषय स्वाभाविको मन्तव्य इति भाषमाण न्यूनता दुर्बलता संशोध्य अग्रे गमनस्य विकल्पो नास्तीति धारणा व्यक्तवान्। उपवेशे केन्द्रीय सदस्य कृष्ण प्रसाद सिटौला कृषकाणां समस्यानां समाधानाय दलेन प्रयासो विधेय कार्ययोजनां निर्माय अग्रे वर्धन स्थानीयम नेपाली श्रमिकाणाम विशेष सम्बोधनत्वेन दलेन कार्ययोजना निर्मातव्येति च अगदत्। अपरः केन्द्रीय सदस्य राजीव कोइराला जनतायाः मनोजयनत्वेन दलेन सर्वकारेण च कार्यं विधातव्यमिति बलं प्रादात्। एवमेव ह्यस्तनोपवेशे नगरीय विकास मन्त्री सीता गुरूङ आर्थिक व्यवस्थापनस्य समस्यायां सत्यामपि स्वस्य मन्त्रालयेन नगरीय विकास नीतेः क्रियान्वयनस्य सुरक्षित नागरिकावासस्य च कार्यक्रमान् प्राथमिकतायां संस्थाप्य कार्यं विधीयमानमस्तीति असूचयत्। दलस्य केन्द्रीय समितेः अपरोपवेश श्वश्रावणस्य दशमे दिवसे वस्ता। सर्वोच्च न्यायालयेन कोशी प्रदेश सर्वकारस्य संगठनस्य विरूद्ध पंजीकारितस्य आदेशाभियाचन निवेदनस्य श्रवणं पूर्ण न्यायपीठे विधीयते। सर्वोच्च न्यायालयस्य न्यायाधीशद्वयस्य सुषमा लता माथेमा तिलप्रसाद श्रेष्ठयोः संयुक्त न्यायपीठेन आदेशाभियाचन निवेदनमिदं पूर्ण न्यायपीठं प्रेषयितुं ह्यः आदिष्टं वर्तते। कोशी प्रदेश सभायाः एमाले संसदीय दलस्य नेत्रा हिक्मक कुमार कार्किणा पंजीकारितम् आदेशाभि याचन निवेदनमेतद् श्रृण्वता न्यायपीठेन पूर्ण न्यायपीठं प्रेषयितुम् अद्यतने न्यायपीठे प्रस्तुत्यै प्रस्तुतिं निर्धारयितुं च आदिष्टं वर्तते। आदेशे कोशी प्रदेश सर्वकारस्य संगठनस्य विरूद्धे पंजीकारिते आदेशाभियाचन निवेदने जटिल वैधानिकस्य प्रश्न समाविष्टोस्तीति उल्लिखितं वर्तते। गताषाढमासस्य सप्तविंशे दिवसे उपविष्टेन न्यायाधीशस्य सपना प्रधान मल्लस्य एकल न्यायपीठेन कोशी प्रदेश सर्वकारस्य संगठनस्य विरूद्धे पंजीकारितम् आदेशाभियाचन निवेदनमाधृत्य कारण प्रदर्शनादेशं दत्त्वा अल्पकालिकान्तरिमादेशश्च प्रदत्तः आसीत्। गताषाढमासस्य एकविंशे दिवसे कोशी प्रदेशे उद्धव थापाविदस्य मुख्यमन्त्रीपदे नियुक्त्यै प्रस्तुते स्वत्वज्ञापने सभामुखेन बाबुराम गौतमेन विहितं हस्ताक्षरणमनु एमाले संसदीय दलस्य नेत्रा हिक्मत कुमार कार्किणा आषाढस्य द्वाविंशे दिवसे सर्वोच्च न्यायालये आदेशाभियाचन निवेदनं पंजीकारितम् आसीत्। ललिता निवास भूम्या प्रकरणे प्रहरिण केन्द्रीयानुसन्धान निकायेन कृत्रिम भूश्रमिको भूत्वा भूम्या अपचलनाय सहयोग विहित इत्यारोपे ह्य ललितपुरा जनद्वयं निगृहीतं वर्तते। केन्द्रीयानुसन्धान निकायस्य प्रहरी वरिष्ठो परीक्षक दिनेश आचार्य कृत्रिम भूश्रमिको भूत्वा भूम्या अधिग्रहणस्य कार्ये संलग्नताया आरोपे एतौ निगृहीतौ इति असूचयत। एतस्य अनुसारेण निगृहीतयोः ललितपुरस्य संजय कुमार महर्जन सकुलानन्द महर्जन च स्तः। एताभ्यांश प्रकरणेऽस्मिन् अधुनावधि प्रहरिण केन्द्रीयानुसन्धान निकायेन द्वाविंशतिं जनान् निगृह अनुसन्धानं विधीयमानं वर्तते। विश्व खाद्य कार्यक्रमस्य नाम्नि कार्यालयं सञ्चाल्य वञ्चनस्य अभियोगेन ह्य जनद्वयं प्रहरिणा निगृहीतं वर्तते। निगृहीतयो सिन्धुपाल्चोक जनपदस्य मेलन्ची नगरपालिकायाः नवमवडा क्षेत्रस्य सम्प्रति काष्ठमण्डपस्य गोकर्णेश्वर नगरपालिकायाः अष्टमवडा क्षेत्र निवासी सप्तचत्वारिंशत् वर्षीयो जयराम केसीनामा घनश्याम कटुवालः मकवानपुर जनपदस्य बागमती ग्रामपालिकायाः नवमवडा क्षेत्रस्य सम्प्रति काष्ठमण्डपस्य बुढा नीलकण्ठ नगरपालिकायाः पञ्चमवडा क्षेत्र निवासी चत्वारिंशत् वर्षीयो दिनेश नामा लीला बहादुर भोलोञ्च स्तः। बुढा नीलकण्ठ स्थिते भाटकस्य गृहे कार्यालयं सञ्चाल्य कृत्रिम कर्मचारिणो नियुज्य विश्व खाद्य कार्यक्रमस्य कृत्रिम संकेत मुद्राम कार्यालय नामांकन पत्रावलीं च निर्माय वञ्चनं विहितमिति प्राप्तं वर्तते इति केन्द्रीय प्रहरी प्रवक्ता कुबेर कडायत अवदत। इमौ लक्ष्यीकृत्य वञ्चन सम्बद्धापराधे काष्ठमण्डप जनपद न्यायालयात् पञ्चानां दिनानां निग्रहणस्य अतिरिक्तावधेः अनुमतिं प्राप्य अतिरिक्तम् अनुसन्धानं विधीयमानं वर्तते। घटनायां संलग्नाः पलायिताः नेत्रयो जनाः प्रहरिणा अन्विष्यमाणाः सन्ति। दार्चुला बैतडी जनपदयोः सीमाक्षेत्रे प्रवहन्त्याम् चमेलिया नद्याम् निर्मिता चत्वारिंशत् मेगावट मित क्षमतायाः उपरितन चमेलिया जलविद्युदायोजना ह्यः सञ्चालितास्ति। गत शुक्रवासरे विहित परीक्षणाम् उपरितन चमेलिया जलविद्युदायोजनाम् दार्चुला प्रमुख जनपदाधिकारी किरण जोशी दार्चुला जनपद प्रहरी कार्यालयस्य प्रहरी नायब उपरीक्षक तर्कराज पाण्डे मार्मा ग्रामपालिकायाः अध्यक्ष जमल सिंह धामी च संयुक्त रूपेण उद्घाटयन् इति समाचाराः।